14वें अध्याय गुणत्रय विभाग जो ऐसे ही हम चतुर्दश अध्याय गुणत्रय विभाग जो श्री भगवान उवाच परं भूय प्रवक्षामि ज्ञाननां ज्ञानमुत्तमं यज्ज्ञत्वा मुनयो सर्वे परां सिद्धिमितो गतः इदं ज्ञानमुपाश्रित्य मम साधर्ममागतः सर्गेऽपि नोपजायन्ते प्रलये च व्यथन्ति च ममो योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहं संभवो सर्वभूतानां ततो भवति भारत सर्वजोनिषु कौन्तेया मूर्तयो संभवन्ति जा तासां ब्रह्म महज्योनि अहं बीजपदपिता सत्यं रजस्तम इति गुणा प्रकृति संभवः निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् तत्र सत्यं निर्मलत्या प्रकाशकम् अनामयम् सुखसंगेन पत्नाति ज्ञानसंगेन चानघ रजोरागात्मकं विद्धि तृष्णासंग समुद्भवम् तन्निबध्नाति कौन्तेय कर्मसंगेन देहिनम् तमस्तज्ञानजं विद्धि मोहनं सर्वदेहिनां प्रमादालस्य निद्राभिस्तन्निबध्नाति भारत सत्तं सुखे संजयति रजकर्मणि भारत ज्ञानमावृत्य तु तमः प्रमादे संजयत्तुतः रजस्तमश्चाभिभूय सत्तं भवति भारत रजो सत्तं तमश्चैव तमो सत्तं रजस्तथा सर्वद्वारेषु देहेस्मिन् प्रकाशाय उपजायते ज्ञानं यदा तदा विद्या वृद्धिं समुत्तम तते लोभ प्रवृत्तिरारम्भ कर्म नाम शमस्पृहा रजसेतानि जायन्ते विवृद्धे भरतर्षभ अप्रकाश प्रवृत्तिश्च प्रमादो मोह एव च तमसेतानि जायन्ते विवृद्धे कुरुनन्दन यदा सत्ये प्रवृद्धे तु प्रलयं जाति देहभ्रे तदुत्तमो विदं लोकान् अमलान् प्रतिपद्यते रजसि प्रलयं गत्या कर्मसङ्गीषु जायते तथा प्रलीनस्तमसि मूढजोनिषु जायते कर्म न सुकृतस्याहु सात्विकं निर्मलं फलं रजसस्तु फलं दुःखम् अज्ञानं तमसो फलं सत्तात् सञ्जायते ज्ञानं रजसो लोभ एव च प्रमादो मोहो तमसो भरतो ज्ञानमेव च ऊर्ध्वं गच्छन्ति सत्तस्था मध्ये तिष्ठति राजसा जघन्न गुणवृत्तस्था अधो गच्छन्ति तामसा नान्नं गुणेभ्य कर्तारं यदा दृष्टानुपश्यति गुणेभ्यश्च परं वेत्ति मद्भावं शोधिगच्छति गुणानेतान् अतीत्यत्रीन् देहि देह समुद्भवान् जन्म मृत्यु जरा दुःखै विमुक्तो मृतश्रुते अर्जुन उवाच कैर्लिङ्गैस्त्रीन् गुणानेतान् अतितो भवति प्रभो किमाचारो कथं चैतान् त्रीन् गुणानि प्रवर्तते श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव नाद्वेष्टि संप्रवृत्तानि नानिवृत्तानि कांक्षति उदासीन वदासीन गुणैर्यो न विचलते गुणा वर्तन्त इत्येव योऽवतिष्ठति नैङ्गते समो दुःख सुखस्वस्थ समो लोष्टाश्म काञ्चन तुल्य प्रिया प्रिय धीरस तुल्य निन्दात्म संस्तुति मानापमानयस्तुल्यस्त अलोमित्तादिपक्षयो सर्वारम्भो परित्यागी गुणातीत स उच्यते मां च जो अव्यभिचारेण भक्तियोगेन सेवते सगुणान् समतितैतान् ब्रह्म भूयाय कल्पते ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्य अव्ययस्य च शाश्वतस्य च धर्मस्य सुखं सैकान्तिकस्य च ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगनाम चतुर्दशोऽध्यायः।